यदाहि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं मधर्मस्य तदात्मानं सृजाम्यः।